कामनी प्रकरसत्मसुकल्प प्रेक्षा लक्षाव्रते ससुरभिर् अभिपालयन्तम् लक्ष्मी सहस्रशत संभ्रम सेव्यमानम् गोविंदमादिपुरुषं तमहं भजामि वेणुं क्वनन्तमरविन्ददलयताक्षं वरहावतं समसितं बुधसुन्दराङ्गम् कन्दर्पकोटिकमनीयविशेषशोभम् गोविन्दमादिपुरुषं तमहं भजामि आलोलचन्द्रकलश वनमाल्यवंसि रत्नाङ्गदं प्रणयकेलिकलाविलासं श्यामं त्रिभङ्गललितं नियतप्रकाशं गोविन्दमादिपुरुषं तमहं भजामि सकलेन्द्रियवृत्तिमन्ति पश्यन्ति पान्ति कलयन्ति चिरं जगन्ति आनन्दचिन्मय सदुज्ज्वल विग्रहस्य गोविन्दमादिपुरुषं तमहं भजामि नवयौवनं च वेदेषु दुर्लभमदुर्लभम् आत्मभक्तो गोविन्दमादिपुरुषं तमहं भजामि पन्थास्तु कोटिशतवत्सरसम्प्रगम्य मुनिपुङ्गवानां सोऽप्यस्ति यत्प्रपदसिं विचिन्त्यतत्वे गोविन्दमादिपुरुषं तमहं भजामि एकोऽप्यसोरचयितुं जगदण्डकोटिं य शक्तिरस्ति जगदण्डचयाय दन्तः दण्डान्तरस्थपरमाणुचयान्तरस्थं गोविन्दमादिपुरुषं तमहं भजामि यत्भावभावितधियो मनुजस्तथैव सम्प्राप्य रूपमहिमा सनयानभूषा सुक्तैरमेव निगम प्रथितैस्तुवन्ति गोविन्दमादिपुरुषं तमहं भजामि प्रतिभाविताभिस्ताभिर्यतेव निजरो तया कलाभि को लोक एव निवसत्यखिलात्मभूतो गोविन्दमादिपुरुषं तमहां भजामि प्रेमाञ्जनचरितभक्तिविलोचनेन सन्तः सदैव हृदयेषु विलोकयन्ति यं श्यामसुन्दरमचिन्त्यगुणस्वरूपम् पुरुषं तमहां भजामि प्रमादिमूर्तिशुकलानि यमेन तिष्ठन् नानावतारमकरोत् भुवनेषु किन्तु स्वयं समभव परम पुमानयो गोविन्दमादिपुरुषं तमहां भजामि यस्य प्रभा प्रभवतो जगदण्डकोटि कोटीश्वशेष वसुदादि विभूति भिन्नम् निष्कलमनन्तमशेषभूतम् गोविन्दमादिपुरुषं तमहां भजामि गोविन्दमादिपुरुषं तमहां भजामि गोविन्दमादिपुरुषं तमहां भजामि यस्य जगदण्डसतानि सूते त्रैगुण्यतद्विषयवेन्वितायमाना सत्त्वावलम्बिपरसत्त्वं विशुद्धसत्त्वं गोविन्दमादिपुरुषं तमहां भजामि चिन्मयरसात्मतया मनसु यः प्राणिनां प्रतिफलं स्मरतामुपेत्य लीलायितेन भुवनानि जयति अजस्रं गोविन्दमादिपुरुषं तमहां भजामि सुतेषु तेषु ते प्रभावनिचया विहितास्य येन गोविन्दमादिपुरुषं तमहां भजामि श्रेष्ठीस्थितिप्रलयसाधनशक्तिरेका छायैव यस्य निविभर्ति दुर्गा इच्छानुरूपमपि यस्य च चेष्टते सा गोविन्दमादिपुरुषं तमहां भजामि गोविन्दमादिपुरुषं तमहां भजामि। पुरुषं तमहं भजामि गोविन्दमादिपुरुषं तमहं भजामि गोविन्दमादिपुरुषं तमहं भजामि क्षीरं यथा दधि विकार विशेष योगा संजायते नहीं तथा पृथगस्ति हेतो यसंभूतां अपि तथा समुपैति कार्या गोविन्दमादिपुरुषं तमहं भजामि दीपार्चिरे दशांतरम् अप्यपेत्य दीपायते विव्रत हेतु समान धर्मा यस्ताद्रगेव हि च विष्णुतया विभाति गोविन्दमादिपुरुषं तमहं भजामि सरोम कूपा आधार शक्तिमवलं व्यपरां स्वमूर्तिं गोविन्दमादिपुरुषं तमहं भजामि यस्यैकनिश्वसितकालमथावलम्ब्य जीवन्ति लोम जगदण्डनाथ विष्णुर्महां स इह यस्य कला विशेषो गोविन्दमादिपुरुषं तमहं भजामि गोविन्दमादिपुरुषं तमहं भजामि सकलेषु निजेषु तेज स्वीयं कियत् प्रकटयत्यपि तद्वदत्र ब्रह्माय एष जगदण्डविधानकर्ता गोविन्दमादिपुरुषं तमहं भजामि पल्लवं युगं विनिधाय कुम्भ द्वन्द्वे प्रणाम समये सगणाधिराज विघ्नान् विहन्तुमलमस्य जगत् त्रयस्य गोविन्दमादिपुरुषं तमहं भजामि कालस्तथात्ममनसीति जगत्त्रयानि यस्मात् भवन्ति विभवन्ति विशन्ति यं च गोविन्दमादिपुरुषं तमहं भजामि
कथागानं नाट्यं गमनमपि वंसी प्रियसखी चिदानन्दं ज्योति परमपि तत् आस्वाद्यमपि च स यत्र क्षीराब्धिः स्रवति सुरभिभ्यश्च सुमहान् निमेषार्धाख्यो वा व्रजति न हि यत्रापि समयः भजे श्वेतद्वीपं तमहम् इह गोलोकम् इतियं विदन्तस्ते सन्तः क्षते विरलचारा कतिपये